इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। आदौ मुख्य वार्ताः। स्वतंत्रता दिवस समारोहस्य उपलक्ष्ये समग्रदेशे हर घर तिरंगा इत्यस्य अभियानस्य अंतर्गतं जनसमागमाः आयोज्यन्ते। उपराष्ट्रपतिः जगदीप धनखड़ः अद्य नवदिल्ल्यां त्रिवर्ण द्विचक्रिका अभियानाय हरितध्वजं प्रदर्शितवान्। केन्द्रीय वित्तमंत्री निर्मला सीतारामन इत्येषा भारतं विकसित राष्ट्रं निर्मातुं नवान्वेषणाय वैज्ञानिक विचाराय त्वरित समाधानाय च आह्वानम् अकरोत्। प्रशासनं धीवराणां सुरक्षां सुनिश्चेतुं व्यवसायं च संवर्धयितुं मत्स्यगृहीतासु सागरीय नौकासु एकलक्षं नियन्त्रणोपकरणानि स्थापयिष्यति। कलकत्ता उच्चन्यायालयेन कोलकाता नगरे एकया महिला चिकित्सिकया सह घटितं दुष्कर्म प्रकरणं केन्द्रीयान्वेषण विभागं प्रति निरीक्षणार्थं प्रेषितम्। अपि च भारतीय पैरा बैडमिंटन क्रीडकः प्रमोद भगतः टोपिंग विरोधी नियमानां उल्लंघन प्रकरणे अष्टादश मासानामवधि पर्यन्तं निलंबितः जातः। अथ वार्ताः विस्तरेण। गुरुवासरे स्वातंत्र दिनस्य उत्सवस्य भागत्वेन हर घर तिरंगा अभियानस्य अंतर्गतं संपूर्ण देशे जनसमागमाः आयोज्यन्ते। अस्मिन् मासे पञ्चदश दिनांक पर्यन्तं संपूर्णे देशे नागरिकेषु देशभक्तिभावं वर्धयितुं एतत् अभियानम् आयोज्यते। एतस्य उपक्रमस्य अंतर्गतं प्रशासनं जनान् स्वगृहेषु त्रिवर्णध्वजारोहणं कृत्वा त्रिवर्णध्वजया सह सेल्फी इति स्वछायाचित्रं स्वीकृत्य हर घर तिरंगा इति जालपुटले उपारोपणं कर्तुं प्रार्थयति। उपराष्ट्रपतिः जगदीप धनखड़ः अद्य प्रातः नवदेहल्याः भारतमण्डपस्थलात् हर घर तिरंगा इत्यस्य द्विचक्रिकया ध्वजं प्रदर्शितवान्। अस्मिन् अवसरे केन्द्रीय मन्त्रिणः गजेन्द्र सिंह शेखावतः राममोहन नायडुः किंजारपुः किरेन रिजिजुः मनसुख मांडवियाः च उपस्थिताः आसन्। मेजर ध्यानचन्द राष्ट्रिय क्रीडांगणे एषः जनसमागमः सम्पन्नः। अस्मिन् अवसरे एनं जनसमूहं सम्बोधयन् उपराष्ट्रपतिः धनखड़ः अवदत् यत् हर घर तिरंगाभियानं राष्ट्रस्य स्वातन्त्र्यं गौरवं विकसित भारतं प्रति प्रतिबद्धतां च प्रतिबिम्बयति। केन्द्रीय वित्त मंत्री निर्मला सीतारामन इत्येषा भारतं विकसित राष्ट्रं निर्मातुं नवान्वेषणस्य वैज्ञानिक विचारस्य त्वरित समाधानस्य च आह्वानम् अकरोत्। सा अद्य भोपाल नगरस्य भारतीय विज्ञान शिक्षानुसंधान संस्थाने आयोजितं एकादश दीक्षांत समारोहं संबोधयन्ती आसीत्। वित्तमन्त्रिणा प्रोक्तं यत् वैज्ञानिक शिक्षायाः शोधस्य च अधिकं उपयोग समाजस्य प्रगतये करणीयः इति। सीतारामन इत्येषा भोपाल नगरे भारतीय विज्ञान शिक्षानुसंधान संस्थानस्य नूतन शैक्षणिक भवनस्य व्याख्यान भवनस्य च शिलान्यासमपि विहितवती। अनया कथितं यत् उन्नत रसायन विज्ञानस्य माध्यमेन देशस्य ऊर्जा आवश्यकताः सम्पूरयितुमपि आह्वानं कृतवती। कृत्रिम मेधाधारित प्रौद्योगिकानुसंधाने इत्यादिभ्यः वर्धमानं आयव्यय आवंटनं समेत्य प्रशासनस्य विभिन्नानां प्रयासानां उल्लेखं कुर्वती मन्त्रिणा प्रोदीरितं यत् समन्वित प्रयासैः अस्माभिः देशं विकसित राष्ट्रं विनिर्मातुं प्रयासः करणीयः। अत्रावसरे मध्यप्रदेशस्य मुख्यमंत्री डॉ मोहन यादवः अपि कार्यक्रमे तस्मिन् भागं भजितवान्। नवदिल्ल्यां मत्स्य पालन क्षेत्रे अंतरिक्ष प्रौद्योगिकीनाम् अनुप्रयोगः इत्यस्मिन् विषये एकां राष्ट्रिय संगोष्ठीं संबोधयन् मत्स्य पालन मंत्री राजीव रंजन सिंहः उक्तवान् यत् सर्वकारः धीवराणां सुरक्षां सुनिश्चेतुं तेषां च व्यवसाय वर्धयितुं धीवराणां नौकासु ट्रांसपॉन्डर इति नियन्त्रणोपकरणानि स्थापयिष्यति। अपि च यदि कोऽपि धीवरः सीमापारं करोति तर्हि ट्रांसपॉन्डर इति उपकरणमपि सूचनां निर्गमिष्यति। अवधेयास्पदं वर्तते यत् देशस्य प्रायः कोटित्रयं यावत् जनाः मत्स्यव्यापारे संलग्नाः सन्ति। एवं च सर्वकारः मत्स्यजीवीनां कल्याणाय प्रतिबद्धम् अस्ति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर इति चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। विदेशमन्त्री डॉ एस जयशंकरः न्यगादीत् यत् भारतम् आविश्वे लोकतन्त्रस्य समर्थक देशो विद्यते। असौ विश्वासम् अपि अभिव्यक्तवान् यत् अमेरिकादेशीयेन नवनिर्वाचितेन राष्ट्रपतिना साकं भारतस्य सम्बन्धः समुचितं निर्मास्यते। डॉ जयशंकरः भारतामेरिकादेशयोः सम्बन्धानां विकासम् अमेरिकास्थितान् भारतीय प्रवासिनः च सम्बोधयन् आसीत्। असौ पुनः अवोचत् यत् H1B इति पारगमनानुमति पत्रेण भारतामेरिकयोः सम्बन्धान् प्रारूपं दातुं शीतयुद्ध सादृशमेव योगदानं विहितम्। विश्वं प्रति विदेशमन्त्रिणः कीदृशं दृष्टिकोणं वर्तते तावत् एतादृशे प्रसंगे विदेशमन्त्री अब्रवीत् यत् सम्पूर्णविश्वं काठिन्यं समयं दृग्गोचरीकरोति। असौ पश्चिमैशिया, दक्षिणपूर्वैशिया, कोविड महामारी इत्यादीनां विषयाणां सततं प्रभावं पुनरावर्तितवान्। उक्तवान् च यत् इदमेकं समाह्वानयुतं परिदृश्यं विद्यते। काठिन्यपरिस्थितौ अपि उभयोः देशयोः मध्ये सम्बन्धः समन्वययुतो भविष्यति। कलकत्ता उच्च न्यायालयेन कोलकाता नगरस्य एकस्मिन् चिकित्सकीय महाविद्यालये चिकित्सालये च एकया महिला चिकित्सिकया सह घटितं दुष्कर्म प्रकरणं केन्द्रीयान्वेषण विभागं प्रति निरीक्षणार्थं प्रेषितम्। न्यायालयेन आरक्षिबलाय आदेशः प्रदत्तः यत् सर्वाणि प्रतिवेदनानि अन्वेषण विभागाय प्रदातव्यानि। पूर्व प्रधानाचार्यस्य विलम्बेन समागतोत्तरम् अभिलक्ष्य उच्चन्यायालयेन एकः प्रश्नः अपि पृष्टः। उक्तं च यत् राज्यप्रशासनं प्रदर्शनकारिभ्यः चिकित्सकेभ्यः किं कार्यं सम्पादयति इति, यतोहि प्रदर्शनरतैः चिकित्सकैः समग्रदेशे रोगिणः काठिन्यम् अनुभवन्ति। संयुक्तराष्ट्रसंघे भारतस्य उपस्थायी प्रतिनिधि राजदूतः आर रविन्द्रः गतदिने संयुक्तराष्ट्रसंघस्य वादविवादे G4 इत्यस्य समूहस्य देशानां पक्षतः प्रदत्ते वक्तव्ये अवदत् यत् संशोधनं विना संयुक्तराष्ट्रसंघस्य सुरक्षापरिषद् वैश्विकसमाह्वानानां निवारणं कर्तुं समर्था नास्ति। असौ उक्तवान् यत् संयुक्तराष्ट्रः सुरक्षापरिषदि संशोधनं केवलं अस्यां संरचनायां विद्यमानम् अस्थायित्वं वर्धयिष्यति, अपि च वर्तमान वैश्विक समाह्वानानि दूरीकर्तुम् असमर्थोऽस्ति। अद्य दिल्ल्यां विमानस्थानके पेरिसोलम्पिक क्रीडायां कांस्य पदक विजेतुः भारतीय हॉकी दलस्य हार्दं स्वागतं जातम्। तत्रैव पदक विजेतृणां दर्शनार्थं बहवः जनाः अपि समागताः आसन्। युवक क्रीडा मंत्री मनसुख मांडवियाः दिल्ल्यां एकस्मिन् कार्यक्रमे क्रीडकानां सम्मानं कृतवान्। तथा च भारतीय हॉकी दलस्य प्रथमः समूहः शनिवासरे नवदिल्ल्यां विमानस्थानकं प्राप्तवान्। टोक्यो नगरे जातायां पैरालिम्पिक शटलर इत्यस्यां प्रतिस्पर्धायां स्वर्ण पदक विजेता प्रमोद भगतः बैडमिंटन वर्ल्ड फेडरेशन इत्यनेन डोपिंग विरोधी नियमानां उल्लंघनाय 18 मासानां अवधि पर्यन्तं निलंबितः। एतेन कारणेन प्रमोदः पेरिस 24-2000 वर्षस्य पैरालिम्पिक क्रीडायां भागं ग्रहीतुं न शक्नोति। अन्ते च वार्ताः पुनरेकवारम्। स्वतंत्रता दिवस समारोहस्य उपलक्ष्ये समग्रदेशे हर हर तिरंगा इत्यस्य अभियानस्य अन्तर्गतं जनसमागमाः आयोज्यन्ते। केन्द्रीय वित्तमन्त्री निर्मला सीतारामन इत्येषा भारतं विकसित राष्ट्रं निर्मातुं नवान्वेषणाय, वैज्ञानिक विचाराय, त्वरित समाधानाय च आह्वानम् अकरोत् इति वार्ताः।